इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। इथियोपिया प्रधानमन्त्री डॉक्टर अबी अहमदः भारत इथियोपिया सहयोगस्य सुदृढीकरणार्थम् असाधारण योगदानाय एवञ्च वैश्विक नेतृरूपेण दूरदर्शी नेतृत्वस्य निर्वहनाय इथियोपिया देशस्य सर्वोच्चं निशान पुरस्कारं प्रधानमन्त्रिणे श्रीनरेन्द्रमोदिने प्रदाय सम्माननं कृतवान्। अवधेयं यत् प्रधानमन्त्री श्रीमोदी प्रथमः वैश्विकः सर्वकारप्रमुखः अस्ति यः एतं पुरस्कारं प्राप्तवान्। अवसरेऽस्मिन् श्रीमोदी अवदत् यत् भारत इथियोपिया सहयोगस्य सुदृढीकरणार्थं ये भारतीयाः सहयोगं कृतवन्तः तेभ्यः एतत् सम्माननं समर्प्यते।
यह सम्मान उन अनगिनत भारतीयों का है जिन्होंने हमारी साझेदारी को आकार दिया। 1896 के संघर्ष में सहयोग देने वाले गुजराती व्यापारी हो, इथियोपियन मुक्ति के लिए लड़ने वाले भारतीय सैनिक हो, या शिक्षा और निवेश के माध्यम से भविष्य संवारने वाले भारतीय शिक्षक और उद्योगपति।
इतः पूर्वं प्रधानमन्त्री श्रीनरेन्द्रमोदी इथियोपिया देशस्य राजधान्याम् अदीस अबाबा नगरे इथियोपिया देशस्य प्रधानमन्त्री डॉक्टर अबी अहमद अली इत्यनेन सह अनेकविषयेषु वार्तां कृतवान्। द्वयोः देशयोः मध्ये द्वयोः नायकयोः उपस्थितौ त्रीणि ज्ञापनपत्राणि हस्ताक्षरितानि। एतेषु सीमाशुल्ककार्ये प्रशासनिकसहायता, इथियोपिया देशस्य दूतावासे डेटा सेन्टर केन्द्रस्य स्थापना, संयुक्तराष्ट्रसंघस्य शान्तिरक्षणे सहकार्यञ्च अन्तर्भवन्ति। अस्मिन्नवसरे प्रधानमन्त्री मोदी अवदत् यत् वयं भारत इथियोपिया सम्बन्धं सामरिक सहयोगस्तरं प्रति नयामः। इतः परं प्रधानमन्त्री श्रीमोदी स्वयात्रायाः अन्तिमपदे अद्य ओमानदेशम् आगमिष्यति। इयं यात्रा ओमानस्य सुल्तान हैतम बिन तारिकस्य आमन्त्रणेन भवति। अस्मिन् वर्षे उभयोः देशयोः कूटनीतिक सम्बन्धस्य 70 वर्षाणि पूर्णानि भवन्ति इत्यतः प्रधानमन्त्रिणः ओमान देशस्य यात्रा अत्यन्तं महत्वपूर्णा मन्यते। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य वेल्लोर नगरस्य श्रीपुरम स्वर्णमन्दिरस्य यात्रां करिष्यति। सा मन्दिरे आयोजित कार्यक्रमे भागं गृह्णाति। तत्रस्थिते मन्दिरपरिसरे सा वृक्षमपि आरोपयिष्यति। कार्यक्रमस्य अनन्तरं राष्ट्रपतिः तिरुपतिं प्रति प्रस्थास्यति। तमिलनाडुराज्यपालः आर एन रविः अथ सूचना प्रसारण राज्यमन्त्री डॉ एल मुरुगनः अपि कार्यक्रमे भागं गृहीष्यतः। अद्यारभ्य नवदिल्लीनगरे पारम्परिक चिकित्साविषये द्वितीयं वैश्विक शिखर सम्मेलनम् आरभ्यते। अस्य आयोजनं विश्व स्वास्थ्य संघटनेन, आयुष मन्त्रालयेन च संयुक्तरूपेण क्रियते। अस्य वर्षस्य विषयः वर्तते यत् स्वास्थ्यस्य कल्याणस्य च विज्ञानम् अभ्यासश्च एतेषु सन्तुलनस्य पुनः स्थापनम् इति। दिल्लीसर्वकारेण राष्ट्रराजधान्यां वायुप्रदूषण नियन्त्रणाय कठिन क्रमाणां क्रियान्वयनं कृतम्। वार्ताहरान् सम्बोधयन् दिल्ली पर्यावरणमन्त्री मंजिंदर सिंह सिरसा उक्तवान् यत् श्वः आरभ्य समुचितं प्रदूषण नियन्त्रण प्रमाणपत्रं विना वाहनानां कृते पेट्रोल पंप इत्यत्र ईंधनं न प्रदास्यते। मंत्री घोषितवान् यत् दिल्लीनगरे निर्माण सामग्रीम् आनयितुं ट्रक वस्तुवाहनानां सम्पूर्ण प्रतिबन्धः भविष्यति। अपि च श्वः आरभ्य दिल्लीतः बहिस्तात् BS6 श्रेणीतः न्यूनानि वैयक्तिकवाहनानि राष्ट्रिय राजधान्यां प्रवेशं न प्राप्नुयुः इति। पुरुष क्रिकेट क्रीडायां भारत दक्षिण आफ्रिकायोः मध्ये चतुर्थ T20 इति अन्ताराष्ट्रिय क्रिकेट क्रीडा अद्य लखनऊ नगरस्य भारतरत्न श्री अटल बिहारी वाजपेयी एकाना क्रिकेट क्रीडांगणे भविष्यति। इयं क्रीडा सायं 7 वादने आरप्स्यते। अवधेयं यत् पञ्चक्रीडाश्रृंखलायां भारतं 2-1 इत्यंक अन्तरालेन अग्रे वर्तते इति। वार्ताः।